एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति सर्वकारेण जनतायाः आधारभूताम् आवश्यकताम् प्रपूर्य विपन्नतायाः निवारणस्य विभिन्नाः कार्यक्रमाः सञ्चाल्यमानाः वर्तन्ते। झापा जनपदस्य दमकस्थाने गतदिने आयोजिते कार्यक्रमे प्रधानमन्त्री ओली अवोचत् सर्वकारः शिक्षा स्वास्थ्य वृत्त्युपार्जन प्रवृत्तिः जनतायाः आधारभूताः आवश्यकताः प्रपूर्य सामाजिक न्याय आदृतस्य देशस्य निर्माणे प्रवर्तमानो वर्तते। प्रधानमन्त्री ओली अभाषत सर्वकारेण विपन्नतायाः निवारणाय युव स्ववृत्त्युपार्जन कार्यक्रमः जनतावास कार्यक्रम प्रवृत्तयो युव विद्यार्थी लक्षिताः विभिन्नाः कार्यक्रमाश्च सञ्चाल्यमानाः वर्तन्ते। प्रधानमन्त्री ओली वर्षद्वयस्य अवधौ आराष्टम् 3,000 किलोमीटर मितः सुदृढीकृतो मार्गः 200 35 च शेतवश्च निर्मिताः सन्तीति भाषमाणः राष्ट्रे विकासस्य गति वर्धिता स्थिति अवोचत्। प्रधानमन्त्रिणा ओलिना ह्य एव दमक चिसापानी रविमार्गस्य शिलान्यास हवितो वर्तते। गतदिने एव प्रधानमन्त्री ओली दमकस्थम कृष्ण मन्दिर वेलडागी योजकम् सुदृढीकृतम् मार्गम् दमक मिक्लाजुङ योजकम् मावाखोला नद्याः सेतुञ्च उद्घाटयत्। प्रधानमन्त्री ओली गतदिने एव दमकस्थाने निर्मितायाः एकीकृत निदर्शन वसत्याः कुञ्चिकाम् समुदायम् हस्तान्तरितवान्। दमक नगरपालिकायाः प्रदेश केन्द्र सर्वकारयोश्च आसन्न त्रिकोटि रूप्यकाणां व्ययेन निदर्शन वसतेः निर्माणं सम्पन्नमस्ति। प्रधानमन्त्रिणः केपी शर्मा ओलिनः नेतृत्वे संघटितस्य सर्वकारस्य वर्षद्वयस्य अवधौ 1,000 षणां शतानां 37 किलोमीटर मितस्य मार्गस्य सुदृढीकरणेन सह 243 सेतवः निर्मिताः सन्तीति मार्ग विभागेन ज्ञापितं वर्तते। वर्तमानार्थिक वर्षस्य प्रथम पञ्चानां मासानाम् अवधावेव 41 मार्ग सेतूनां निर्माणं सम्पन्नमस्तीति मार्ग विभागस्य सेतु महाशाखा प्रमुख दीपक भट्टराई अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भावनात्मक रूपेण दलैकतां सबलीकर्तुं बलं ददाति। नेकपा दलस्य पञ्चम प्रदेश समित्या गतदिने कोहलपुरे आयोजिते प्रदेशस्तरीय प्रशिक्षण कार्यक्रमे अध्यक्ष प्रचण्ड चिरकालिक प्रयासस्य पश्चात् दलैकता सम्पन्ना स्थिति हेतोः इमाम अवरस्तर पर्यन्तमेव सबलां विधातुं नेतृ कार्यकर्तृन् निरदिशत्। असौ अवोचत् एमसीसी परियोजनायाः विषये दलेन कार्यदलं निर्माय अधीयमानम् अस्तीति हेतोः कार्यदलेन प्रदास्यमानस्य प्रतिवेदनस्य आधारे दलेन आधिकारिक धारणा सार्वजनिकरिष्यते। नेकपा दलस्य पञ्चम प्रदेशस्य अध्यक्षायाः ओन्सरी घर्ती इत्यस्याः अध्यक्षतायां सम्पन्ने तस्मिन् प्रशिक्षण कार्यक्रमे नेकपा दलस्य महासचिवः विष्णु पौडेलः गृहमन्त्री रामबहादुर थापा नेकपा दलस्य पञ्चम प्रदेशस्य प्रभारी पञ्चम प्रदेशस्य मुख्यमन्त्री च शंकर पोखरेलश्चेति नेतारः दलेन सर्वकारेण च जनाकांक्षाया अनुसारेणैव कार्याणि विधीयमानानि सन्तीति अवोचन्। नेपाली कांग्रेस दलस्य दलेन सर्वकारेण जनापेक्षाया अनुसारेण कार्याणि कर्तुं सक्तम् नास्तीति ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य प्रवक्ता विश्वप्रकाश शर्मा गतदिने सानेपा स्थिते दलस्य केन्द्रीय कार्यालये पत्रकार सम्मेलनम् आयोज्य वर्षद्वयस्य अवधौ सर्वकारेण प्राप्तान् अवसरान् सदुपयुज्य जनापेक्षाया अनुसारेण कार्याणि कर्तुं न सक्तम् इति टिप्पणीम् अकरोत्। प्रवक्ता शर्मा त्रयाणमेव स्तराणाम् निर्वाचनम् सम्पाद्य संघीयतायाः क्रियान्वयनस्य पश्चात् श्रेष्ठम् सहजम् राजनैतिक वातावरणम् श्रेष्ठ दायित्व बाही च प्रतिपक्ष द्वितृतीयांशस्य स्पष्टम् बहुमतम् चेति अनुकूल पृष्ठभूमौ सत्यामपि सर्वकारेण तत् सदुपयोक्तुम् सक्तम् नास्तीति अवदत्। उपप्रधान रक्षामन्त्री ईश्वर पोखरेल कथयति भारतेन मानचित्रे समाविष्टान् कालापानी लिपुलेख लिम्पिया धुरा भूभागान् प्रत्यावर्तयितुं सर्वकारेण कूटनीतिक प्रयास प्रारब्धो वर्तते। दार्चुलोद्योग वाणिज्य संघेन आयोजिते एतद् विक्रम वर्षीय सुदूरपश्चिम पर्यटन व्यापारिक मेलाम् दार्चुला महोत्सवम् च ह्य उद्घाटयन् उपप्रधानमन्त्री पोखरेल अवोचत् सर्वकारेण दार्चुला जनपदस्य कालापानी लिपुलेख लिम्पिया धुरा भूभागाः अस्माकं सन्तीति निगद्य भारताय पत्रं प्रेषितं वर्तते। सर्वकारः सीमा रक्षायै प्रतिबद्धोस्तीति चर्चयन् असौ अवासता नेपालाय 1 इञ्च परिमित भूभागस्यापि अतिक्रमणं स्वीकार्यं नास्ति। संचार सूचना प्रविधि मन्त्री गोकुल प्रसाद बास्कोटा वदति नवीन शिक्षा नीति शिक्षा क्षेत्रस्य समग्र सुधाराणां सम्पादनत्वेन आनेष्यते। काभ्रेपलाञ्चोक जनपदस्य बनेपा नगरपालिकायाः तृतीयवडा क्षेत्रवर्तिनी सुमारा स्थाने विद्यमानस्य प्रभाताधार भूत विद्यालयस्य अष्टात्रिंशे वार्षिकोत्सवे भवनोद्घाटन कार्यक्रमे च ह्यो मन्त्री बास्कोटा स्थानीय स्तराणां जनप्रतिनिधीन् शिक्षकाणां स्थानान्तरण पदोन्नत्योः अभिरुचिं न धर्तुम् अन्वरुणत्। संचार मन्त्री बास्कोटा गतदिने एव बनेपा नगरपालिकायाः तृतीयवडा क्षेत्र कार्यालय भवनस्य शिलान्यासं विदधानः निर्धारित समये कार्याणि सम्पादयितुं निर्माण व्यवसायिनः निरदिशत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य प्रवक्ता नारायणकाली श्रेष्ठा वदति नेपालस्य भावियुगम् आर्थिक क्रान्तेः युगम् भविष्यति। गोर्खा जनपदस्य सिरान्चोक ग्रामपालिकायाः षष्ठे वडा क्षेत्रे ह्य आयोजिते कार्यक्रमे असौ अवोचत् राजनीतिक परिवर्तनम् माध्यमम् निर्माय आर्थिक क्रान्तेः प्रक्रियाम् अग्रे वर्धयितुम् दृढतापूर्वकम् सर्वकारः अग्रे वर्धमानो वर्तते। सभामुख अग्निप्रसाद सापकोटा सीमा प्रासाद स्थितं निर्माणाधीनं संघीय संसदा भवनं गतदिने निरीक्षितवान्। भवनं निरीक्षमाणः सभामुख सापकोटा गुणस्तरीय निर्माणेन सहैव समयसीमायाः अभ्यन्तरे एव कार्यं सम्पाद्य सन्देशं प्रवाहितुम् अन्वरुणत्। समाजवादी दलस्य अध्यक्ष उपेन्द्र यादव भासते संविधान संशोधनस्य विकल्पो नास्ति। प्रेस नेपाल संगठनस्य मोरङ शाखया गतदिने विराटनगरे आयोजिते पत्रकार सम्मेलने असौ सर्वेषां स्वत्वस्य विद्यमानत्वेन संविधानं संशोधनीयं परिमार्जनीयं चेति विचारं व्यक्तवान्। इति समाचारः।